अथ चतुर्दशोऽध्यायः श्रीभगवानुवाच परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् यज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः इदं ज्ञानमुपार्षित्य मम साधर्म्यमागताः सर्गेऽपि नोपजायन्ते प्रलयेन व्यथन्ति च मम योनिर्महद्ब्रह्म तस्मिन् गर्भम् ददाम्यहम् सम्भवः सर्वभूताणाम् ततो भवति भारत सर्वयोनेषु कौन्तेय मूर्तयः सम्भवन्ति याः तासम् ब्रह्म महद्योनिर् अहम् बीजप्रदः पिता सत्त्वम् रजस्तम इति गुणः प्रकृतिसम्भवाः निबध्नन्ति महाबाहो देहदेहिनमव्ययम् तत्र सत्त्वम् निर्मलत्वात् प्रकाशकमनामयम् सुखसङ्घेन बध्नाति ज्ञानसङ्घेन चानघ रजो रागात्मकम् विद्धि तृष्णासङ्गसमुद्भवम् तन्निबध्नन्ति कौन्तेय कर्मसङ्गेन देहिनाम् तमस्त्वज्ञानजम् विद्धि मोहिनम् सर्वदेहिनाम् प्रमादालस्य निद्राभि स्तन्निबध्नन्ति भारत सत्त्वम् सुखे सञ्जायति रजः कर्माणि भारत ज्ञानमाभृत्य तु तमः प्रमादे सञ्जयुत्युत रजस्तमश्चाभिभूयः सत्त्वम् भवति भारत रजः सत्त्वम् तमश्चैव तमः सत्त्वम् रजस्तथा सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते ज्ञानम् यदा तदा विद्या भरतर्षभ अप्रकाशो प्रवृत्तिंश्च प्रमादो मोह एव च तमस्येतानि जायन्ते विवृद्धे कुरु नन्दन यदा सत्त्वे प्रवृद्धे तु प्रलयम् यान्ति देहभृत ततोत्तमविदाम् लोकान् अमलम् प्रतिपद्यते रजसि प्रलयम् गत्वा कर्मसङ्गेषु जायते तथा प्रलिनास्ति तमसि मूढयोनेषु जायते कर्मणः सुकृतस्याहुः सात्विकम् निर्मलम् फलम् रजसस्तु फलम् दुःखम् अज्ञानम् तमसः फलम् सत्त्वात् सञ्जायते ज्ञानम् रजसो लोभ एव च प्रमादो मोहतमसो भवतो ज्ञानमेव च ऊर्ध्वम् गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः जगन्यागुणवृत्तिष्ठा अधो गच्छन्ति तामसाः नान्यम् गुणेभ्य कर्तारम् यदा दृष्ट्वानुपश्यति गुणेभ्यश्च परम् वेत्ति मध्ये